अथ श्रीकृष्णाष्टकम् व्रजमनःशरणं यदुनन्दनं रजतपीठपुरस्थितमादरात् भजकलोकततिं सदयानिधिर्निजपदं नयतेति सदागमाः अजमुखामरवृन्दसुवन्दितं भुजगशीर्षविहारिपदाम्बुजम् यज यथार्थमनीषि हृदालयं त्यज विनश्वर दुर्विषयानलम् विजयमित्रममन्दधियार्चितं व्रजपतिं भुजदण्डधृताचलम् सुजनताफलदान विचक्षणं द्विजवराननमाश्रय यादवम् सृजति पाति हरत्यथ विष्टपं श्वजतयो ह्युरसा कमलालयम् रुजमपास्य सुखं स्वमसौ दिशे द्विजनदेशमुपास्वमधुद्विषम् गजरदाहतमल्लममर्त्यदो व्यजनवीजितमक्षिजिताम्बुजम् अजसि चेच्छरणं मुरवैरिणं न जनिनाशपुरोगमदूषणम् अजरनाथ महामदवारणं भुजनिवेशननाशितकेशिनम् स्वजनुरीशवरासुरसंहरं व्रजरजस्तम आदिनिवृत्तये द्विजसुतप्रदमङ्गपयश्चरध्वजजनं समराहतशात्रवम् अजनगेशतुरङ्गममानतव्रजसमीहितदं भजयादवम् रजकसामजकंसमुखासनस्वजननीजनकामितसौख्यदम् रजनीनाथकुलाभरणं धृतस्रजमनन्तगुणं भज हे मनः ऋतमनीषहृदब्जसुरालयश्रितसमीहितदो मधुशात्रवः कृतमिदं यतिनापठतेष्टकं सुतमुखेष्टततिं ददते हरिः इति श्रीसत्यसन्धयति कृतम् श्रीकृष्णाष्टकम्।